तिष्ठतु, पादयोर् विष्णुस्तिष्ठतु, हस्तयोर् हरस्तिष्ठतु, बाहोर् इन्द्रस्तिष्ठतु, जठरे अग्निस्तिष्ठतु, हृदये शिवस्तिष्ठतु, कण्ठे वसवस्तिष्ठन्तु, वक्त्रे सरस्वती तिष्ठतु, नासिकयोर्वायुस्तिष्ठतु, नयनयोश्चन्द्रादित्यौ तिष्ठेताम्, कर्णयोरश्विनौ तिष्ठेताम्, ललाटे रुद्रास्तिष्ठन्तु, मूर्ध्यादित्यास्तिष्ठन्तु, शिरसि महादेवस्तिष्ठतु, शिखायां वामदेवस्तिष्ठतु, पृष्ठे पिनाकी तिष्ठतु, पुरतशूली तिष्ठतु, पार्श्वयो शिवा शङ्करौ तिष्ठेताम्, सर्वतो वायुस्तिष्ठतु, ततो बहिः सर्वतोऽग्निर्ज्वाला माला परिवृतस्तिष्ठतु, सर्वेष्वङ्गेषु सर्वा देवता यथास्थानं तिष्ठन्तु, मा कुं रक्षन्तु।